एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रिय स्वतन्त्र दलस्य प्रथमं राष्ट्रिय महाधिवेशनं नवीनं नेतृत्वं प्रचित्य ह्यः सम्पन्नमस्ति। चितवन जनपदे सम्पन्ने महाधिवेशने महिलावर्गस्य उपसभापति पदस्य कृते महामन्त्री पदस्य कृते स्वतन्त्र सह महामन्त्री पदे मतदानं सम्भूतमासीत्। ह्यः सम्पन्ने निर्वाचने दलस्य उपसभापति पदे सोविता गौतमः निर्वाचिता अस्ति। महामन्त्री पदे विपिन आचार्यः, सह महामन्त्री पदे सुअसीम शाह, हरि ढकालः, निशा डागी च निर्वाचित सन्ति। दलस्य सभापति पदे एतत्पूर्वमेव रवि लामिछाने निर्वाचितोऽस्ति। एवमेव वरिष्ठ नेत्री पदे बालेन्द्र शाह, उपसभापति पदे स्वर्णिम वाग्ले च एतत्पूर्वमेव निर्वाचितोऽस्तः। तथैव एकोनशतं जना सदस्य पदे निर्वाचिता वर्तन्ते। केन्द्रीय सदस्य पदस्य कृते बृहस्पतिवासरे निर्वाचनं सम्भूतमासीत्। रासपा दलस्य विधानस्य अनुसारेण प्रथमं सदस्य पदानां कृते निर्वाचनं सम्पन्नमासीत्। तदनु द्वितीय चरणे उपसभापतिना सहितानां पदाधिकारिणां कृते निर्वाचनं विहितमासीत्। सदस्य पदे निर्वाचितेन जनेनैव पदाधिकारी पदानां निर्वाचने भागो ग्रहीतुं शक्यते इति रासपा दलस्य वैधानिकी व्यवस्था वर्तते। तथैव कतिपय पदाधिकारिणः 51 सदस्याश्च सभापतिना चेष्यन्ते इति दलस्य विधाने उल्लिखितं वर्तते। रासपा दलस्य केन्द्रीय समितेः निर्वाचने वैद्युत प्रणाल्या मतदानं विहितम् आसीत् इत्यतः निर्वाचन समाप्तेः समनन्तरमेव मतपरिणामोऽपि प्रकाशितो वर्तते। नवनिर्वाचितैः पदाधिकारिभिः केन्द्रीय सदस्यैश्च ह्य एव शपथग्रहणं विहितमस्ति इति रासपा दलेन ज्ञापितं वर्तते। राष्ट्रिय स्वतन्त्र दलस्य प्रथमं महाधिवेशनम् अस्यैव आषाढमासस्य सप्तम दिवसात् ह्यस्तन दिवसं यावत् सञ्चलितम् आसीत्। ह्यस्तन दिवसाय निर्धारितः प्रतिनिधिसभायाः उपवेशः विशेषकारणेन श्व रविवासराय निर्धारितोऽस्ति। संघीय संसद सचिवालयेन ह्यः सूचनां प्रकाश्य उपवेशस्य दिनं समयश्च परिवर्तिते स्त इति ज्ञापितम् वर्तते। सचिवालयस्य महासचिवेन पद्मप्रसाद पाण्डेयेन प्रकाशितायाः सूचनायाः अनुसारेण तत्पूर्वम् अद्य पूर्वाह्नस्य 11 निर्धारितः उपवेशः विशेषकारणेन स्थगितः आसीत्। संसद सचिवालयस्य अनुसारेण राष्ट्रिय स्वतन्त्र दलस्य राष्ट्रिय महाधिवेशनस्य कारणेन विपक्षिदलानां पूर्वनिर्धारितस्य कार्यक्रमस्य च कारणेन उपवेशः रविवासराय निर्धारितोऽस्ति इति ज्ञापितम् वर्तते। राष्ट्रियसभायाः ह्यस्तनोपवेशे सांसदैः वर्षाकालिकसमये वैकल्पिकवासस्य सुरक्षायाः वृत्त्युपार्जनस्य च व्यवस्थया सहैव व्यवस्थया विनैव भूमिहीनानां जनानाम् आश्रयस्थलात् अपसारणम् मानवाधिकारस्य विपरीतम् अस्ति इति उक्तम् वर्तते। सांसदः भूमिहीनानां नदीतटीय क्षेत्रेषु निवसतां जनानां च उचित व्यवस्थापनेन सहैव दृष्टिहीनानां नागरिकाणां जीविकोपार्जनेन सह सम्बद्ध मार्गे सांगीतिक प्रस्तुतिरूपः कार्यक्रमो न पिधे इति सर्वकारं बोधितवन्तः। शून्यसमये सांसदः द्वादशकक्षायाः परिणाममाधृत्य विद्यार्थी विविधीयमानो विरोधः सर्वकारेण गभीरतया ग्रहणीयः। शिक्षा स्वास्थ्य क्षेत्रेषु प्रतिशतं त्रयस्य करस्य व्यवस्था अपसारणीया, इन्धनस्य वर्धित मूल्यस्य नियन्त्रणं विधेयम् इत्येवं सामयिक विषयेषु च सर्वकारस्य ध्यानम् आकृष्टवन्तः। उपवेशे राष्ट्रियसभायाः सचिवः तुलबहादुर कणेलः एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य विषये प्रतिनिधिसभातः प्राप्तं सन्देशं सभा समक्षं प्रास्तौत्। राष्ट्रियसभायाः अपर उपवेशः आषाढमासस्य 15 दिवसे सोमवासरे दिवासपाद द्वादशवादनिवस्ता। शिक्षा खेलकूद मन्त्री सस्मित पोखरेलः निगदति सुदूरपश्चिम विश्वविद्यालयस्य अन्तर्गतस्य टीकापुर आंगिक महाविद्यालयस्य अतिक्रान्तां भूमिं प्रयोगे आनेतुं कार्यम् अग्रे वर्धमानमस्ति। सुदूरपश्चिम विश्वविद्यालयस्य दीक्षान्त समारोहे पूर्वे द्यो मन्त्री पोखरेलः टीकापुर महाविद्यालयस्य अतिक्रान्तां 30 बीघा परिमितं भूमिं प्रयोगे आनेतुं कार्यं प्रारब्धमस्ति इति समस्पष्टयत्। मन्त्री पोखरेलः सुदूरपश्चिम विश्वविद्यालयस्य दीक्षित विद्यार्थिनां संख्या विगत समयात् द्वैगुण्येन वर्धिता अस्ति इति विषये प्रसन्नताम् अभिव्यनयत्। राष्ट्रिय सभा अन्तर्गताया विकास आर्थिक विषय सुशासन समिति उपवेश स्तरगता व्यवस्थापिकाया वित्तीय अन्तर सम्बन्धस्य च विषयेषु व्यमृष्टम् अस्ति। समिति स्तनोपवेश सुदूरपश्चिम प्रदेश सभाया अर्थ विकास प्राकृतिक स्रोत समित्या राष्ट्रिय प्राकृतिक स्रोत वित्त आयोगेन योजना आयोगेन च सह विमृष्टम् अस्ति। उपवेशे राष्ट्रिय योजना आयोगस्य उपाध्यक्ष डाक्टर गुणाकर भट्ट, प्राकृतिक स्रोत वित्त आयोगस्य अध्यक्ष विपिन राज निरौला, सुदूरपश्चिम प्रदेश सभाया अर्थ विकास प्राकृतिक स्रोत समिति सभापति घनश्याम चौधरी च धारणां व्यक्तवन्तः। नेकपा एमाले दलस्य उपाध्यक्षस्य पूर्वार्थ मन्त्रिणस्य विष्णु प्रसाद पौडेलस्य पक्षतः सर्वोच्च न्यायालये प्रस्तुतस्य बन्दी प्रत्यक्षीकरणस्य याचिका निवेदनमाधृत्य अशैव आषाढ मासस्य षोडशे दिवसे श्रवणं भविता। पौडेलस्य पत्न्या दोमाया पौडेल इत्यनया स्वपतिः पौडेलः विधि विपरीततया निगृहीतोऽस्तीति उक्त्वा अशैव आषाढ मासस्य दशमे दिवसे याचिका निवेदनं पञ्जीकारितमासीत्। आराष्ट्रं वर्षायामज प्रणाल्या सक्रियतायां सत्यां सम्प्रत्यपि वृष्टे न्यूनता वरिवर्ति। जलवायु विज्ञान विभागस्य तथ्यांकस्य अनुसारेण जून मासस्य प्रथम दिवसात् पञ्चविंशं दिवसं यावत् आराष्ट्रं सामान्यतः एकोनपञ्चाशदुत्तरैकशत मिलीमीटर मिता वृष्टि सम्भूता अस्ति। मासारम्भे वृष्टेर् न्यूनता आसीत्। परवर्तिषु दिवसेषु स्वल्पतरे सुधारे सम्भूतेऽपि सामान्य स्थितो अवस्था प्राप्ता नास्ति। स्याङ्जा जनपदे जीपयानस्य दुर्घटनायां एको जन मृतोऽस्ति। मृतक स्याङ्जा जनपदस्य वालिङ नगरपालिकाया सप्तमोडा क्षेत्रस्य राजेन्द्र बिरकट्टा वर्तते। दुर्घटनायाम् अष्टादश जना आहता वर्तन्ते। आहतेषु चतुर्णां जनानाम् अवस्था गभीरा अस्ति। एतेषाम् उपचार जायमानोऽस्ति इति प्रहरिणा ज्ञापितम् वर्तते। काष्ठमण्डप महानगरपालिकया शुक्रराज संक्रामक रोग नियन्त्रण चिकित्सालये दृष्टं रेविज नाम्ना प्रथितस्य अलर्क रोग विरुद्धस्य टीकौषधस्य अभावं परिहर्तुं टीकौषधं प्रदत्तम् अस्ति। महानगरपालिकाया कार्यवाहक प्रमुखेन सुनीता डंगोल इत्यनया ह्य टीकौषधमेतत् चिकित्सालयाय प्रदत्तं वर्तते। चिकित्सालये अलर्क रोग विरुद्धस्य टीकौषधस्य मात्रासु न्यूनतायां सत्यां स्वास्थ्य संकट वर्धितुं शक्नोति इत्यतः महानगरपालिकया टीकौषधं प्रदत्तमस्ति इति उक्तं वर्तते। इति समाचारः।